สมาสิทธิโยนะคะ
เจตเรียนรู้ว่าตัวกัจจินทร์สมาสัจจินทร์สมิงการิกาสมาสัตติมาจินวัชมุติการิกาสมาสัตติอภิมาการิกาสุงการสยามกิโนยตนา
สุงการสยามกิโนยตนา
เอกรูปานุบันธนา
เอกรูปานุบันธนา
สัตว์เอกเวกับเหตุเอกุ
योगी काव्यम् रचयन् अस्ति तत्र शृङ्गारः रसः प्रधानः अस्ति अङ्गीरसः अस्ति अङ्गिरः शृङ्गाररसस्य एकरूपतया अनुबन्धनं कर्तुं शक्यते इत्युक्ते आरम्भतः अन्तपर्यन्तं शृङ्गाररसः एव सम्यक् आगच्छेति अनुबन्धनं कर्तुं शक्यते तथा सः तथा कुर्वन् अस्ति चेत् मध्ये सः अनुप्रासं योजयति चेत् सः अनुप्रासः अस्य शृङ्गाररसस्य प्रकाशकः भवति ते शृङ्गाररसं सः प्रकाशयितुम् इच्छति शृङ्गाररसस्य निबन्धनं कर्तुम् इच्छति सः तथा कुर्वन् सः मध्ये मध्ये अनुप्रासमेव योजयितुम् इच्छति चेत् सः अनुप्रासः यः अस्ति सः शृङ्गाररसस्य प्रकाशकः न भवति अतः तत् न करणीयम् इति तात्पर्यम् अङ्गिरो हि शृङ्गारस्य ये उक्ताः प्रभेदाः तेषु सर्वेषु एकप्रकारानुबन्धितया प्रबन्धेन प्रवृत्तः अनुप्रासः न व्यञ्जनः अनुप्रासं यदि सः मध्ये निबध्नाति सः तदैव शृङ्गारसस्य व्यञ्जकः न भवति अतः तेन अनुप्रासस्य योजनं न करणीयं तत्र अङ्गिनः इत्यनेन अङ्गभूतस्य शृङ्गारस्य एकरूपानुबन्ध्यनुप्रासनिबन्धने कामकारणं शृङ्गारः अङ्गी अस्ति चेत् तत्र तु न करणीयम् अङ्गी अस्ति चेत् अङ्गम् अस्ति चेत् कुत्रापि कृते तस्य तावत् प्राधान्यं नास्ति तत् अङ्गरूपमस्ति चेत् तस्मिन् समये तु कामचारम् कामचारं नाम इच्छति चेत् कर्तुं शक्यते न इच्छति चेत् त्यक्तुमपि शक्यते कामचारः कामं यथा इच्छति तथा आचरितुम् अर्हति सः कामचारः इति गच्छति तादृशेषु अवसरेषु कामचारः यत्र अङ्गीरूपेण शृङ्गारसस्य निबन्धनम् इच्छते तत्र तु अनुप्रासस्य योजनं कर्तुं प्रयत्नः अनन्तरं ध्वन्यात्मभूते शृङ्गारे
ध्वन्यात्मभूते शृङ्गारे
यमकादिबन्धनम्
यमकादिबन्धनम्
शक्तावपि प्रमादित्वम्
शक्तावपि प्रमादित्वम्
विप्रलम्बे विशेषतः
विप्रलम्बे विशेषतः
इत्येकं सम्यक् अवगन्तव्यम् ध्वन्यात्मभूते शृङ्गारे यत्र शृङ्गाररसः ध्वन्यात्मरूपेण तिष्ठति तादृशे काव्ये यमकादीनां निबन्धनं यमकालङ्कारस्य प्रयोगः इत्यादि करणमिति अस्ति तत् शक्तावपि प्रमाणित्वं कविः समर्थः अस्ति तर्हि यमकादीनाम् अलङ्काराणां निबन्धनं सुलभं नास्ति इत्युक्ते समानतया यमकः नामकः इति चेत् समानवर्णानां पुनरावृत्तिः अथवा समानपदानां पुनरावृत्तिः एतत् सर्वं भवेत् तद् करणीयं चेत् तस्य बहु प्रयत्नोऽपि आवश्यकः शक्तिः अपेक्षिता शक्तावपि शक्तिः अस्ति चेदपि यत्र शृङ्गारसः एव प्रधानतया अस्ति तत्र यमकादीनां निबन्धनं प्रमादित्वं दोषाय भवति अतः समीचीनः कविः यः अस्ति सः यमकादिनिबन्धनं कर्तुं जानाति चेदपि एतादृशे काव्ये यमकादीनां नियोजनं न करोति किमर्थमिति चेत् सः दोषाय भवति యమకాల నిబంధనం ప్రమాదిత్వం భవతి విప్రలంభే విశేషత. విప్రలంభ సంజ్ఞానస్య వర్ణనం కుర్వన్నస్తి తస్మిన్ సందర్భే కవి అహం జానామి ఇతి కృత్వా శబ్దానాం పునః పునః ఆవర్తనం యథా స్యాత్ తథా యమక నిబంధనం కరోతి చేత కావ్యదోష ఇది అస్మాకు. అతన అత్ర యమకాది నిబంధనం శక్తామతి నకరణీయం. శక్తి నామ కావ్య నిర్మాణ శక్తి యమకాది నిబంధన శక్తి యమకాది నిబంధనే శక్తి చేతి సా దోషమైవ ప్రమాణిత్వం. ఏషా కారిక కించిత్ ఇంపార్టెంట్ కదాచిత్ విస్మరణ శక్తావతి ప్రమాణిత్వం విప్రలంభేమి చేత. అంటే ధ్వనే ఆత్మభూత సుందార తాత్పర్యేణ వాచ్యవాచకాభ్యాం ప్రకాశ్యమానః భవతి తస్మిన్ యమకాదీనాం యమక ప్రకారాణాం నిబంధనం దుష్కర శబ్దభంగ శ్లేషాదీనాం శబ్దశబ్దావతి ప్రమాదిత్వం. శ్లేషాలంకారాదికమస్తి కిల, యమకాలంకార శ్లేషః భవతి చేత్ సభంగ శ్లేషః అభంగ శ్లేషః ఇత్యాదికమస్తి. శబ్దాన్ విభజ్య అర్థ వక్తవ్యః భిన్న ప్రకారేణ అర్థకథనం కాకకాలీయేన కాదాచిత్ కదాచిత్ కస్యచిత్ ఏకస్య యమకాదేః నిష్పత్తావతి భూమ్నా అలంకారాంతరవద్గ్రహాంగత్వేన నిబంధ న కర్తవ్యః. ఏం క్రియతి చేత్ ప్రమాదిత్వం ఇత్యుక్తమస్తి. అకస్మాత్ కుత్రచిత్ ఏకవారం ఆగతం చేత చింత, అకస్మాత్ ఏకవారం ఆగతం చేత తద్విషయ చింతా కరణీయం చేత్ యత్నేన భూమునః నామ ఆధిక్యేన కస్య పునః యోజనం ఇది చేత రసాంగత్వేన నిబంధనం చేత తస్య న కర్తవ్యం. విప్రలంభే విశేషత ఇత్యనేన విప్రలంభే సతావధానకార్యక్రమేషు శ్లోకాదికం రచయంతి తత్ర కిం భవతి ఏకవర్ణః న ప్రయోక్తవ్యః ఇత్యాది నిర్బంధ క్రియతే. యథాకథంచిత్ మహతా ప్రయత్నేన ఏకం శ్లోకం నిర్మాన్ని తస్య అర్థ వక్తవ్యః చేత్ బహు క్లేశః భవతి. అతః తాదృశం బహు ప్రయత్నేన ఏక అర్థ గ్రహీతవ్యః తాదృశం తత్ర నిరుచ్యతే ఏవ. యతః విప్రలంబసంజ్ఞా హేతు సౌకుమారి ఆదిశయః
వస్తుతే
ప్రచాలయతే తస్య స్థాపనం ఇది విశేషతయా కథనం తస్యో భవతి. తస్మిన్ ద్యోత్యే యమకాదేహ అంగస్య నిబంధ నియమాత్ న కర్తవ్యః. నియమేన విప్రలంబసంజ్ఞాయేషు యమకాదీనా నిబంధనం సర్వథా న కర్తవ్యం. తదేవ వదతేంద్రియమకారికాయాం రసాక్షిప్తతయా యస్య బంధశక్తిక్రియో
భవేత్
అబృహద్యత్న నిర్వర్త్యః
ఓలంకారోధ్వనోమతః.
కుత్రచిత్ రసాక్షిప్తతయా అంటే కస్యచిత్ రసస్య వర్ణనం కర్తుం సహ ఉద్దిష్టః అస్తి తదా స్వయమేవ ఆక్షిప్త సన్ కష్టన అలంకార తత్ర ప్రవిశతి ఇది చింతయ. ఇకతే ఏతదర్థమేవ సహ ప్రయత్నం న కరోతి రసాక్షిప్తతయా రసస్య నిబంధనార్థం ఏక ప్రయత్నం కుర్వన్నస్తి తదా ఆక్షిప్త ఇవ అన్య కష్టన అలంకార తత్ర ఆగచ్చతి చేత సహ శక్య క్రియ భవితుమర్హతి. తాదృశీ క్రియాతో శక్య అంగీకారయోగ్య భవితుమర్హతి. తదేవ అగ్నేయకం శబ్దం ప్రయుంక్తే అబృహద్యత్న నిర్వర్త్యః నామ ఏకాదశస్య అలంకారస్య నివర్తనార్థం పృథక్ యత్నః కరణీయః నాస్తి. ఇత్యుక్తే శృంగారరసస్య అథవా అన్యస్య కస్యచిత్ కరుణరసస్య వర్ణనార్థం కవిః శ్లోకం రచయన్నస్తి. తదా శృంగారసంపూహణ నిద్యుద్ధ తదా అకస్మాత్ తత్ర అన్యోపి రసద్వయం ఆగచ్చతి చేత అన్యోపి అలంకార ఆగచ్చతి చేత సహ అంగీక్రియ తద్వినా అహం ఇదానీం శృంగారసంపూహణేనస్మి తత్ర మధ్యే అహం ఏతస్య అలంకారస్య ప్రయోగం కరోమి ఇతి సంకల్పం కృత్వా ఏష అలంకారం అస్తి తస్య లక్షణం కిమస్తి ఏం భవేత్ ఏం భవేత్ ఇది సర్వం చింతయిత్వా ఏం ఆనయతి చేత సహ దోష అపృథగ్యస్య నిర్వర్త్యః నామ అలంకారస్య నిబంధనార్థమేవ తేన పృథగ్యత్నః కరణీయః అపృథగ్యత్నేన ఏది నిర్వర్త్యః భవతి తదర్థం పృథక్ ప్రయత్నః నాపేక్షితః తథైవ భవతి చేత భవత్న దోషః నాస్తి
किंतु ज्ञातुं कष्टं किल प्रयत्न
सह वस्तुतः रसवर्णयितुं रसस्य निबन्धनं कर्तुं प्रयत्नः तदा स्वयमेव आगच्छति कुत्रचित् एका क्रिया वर्धते बभूव इति केनचित् कदाचित् किं पितृभ्यः तर्पणं दातव्यम् आसीत् तदर्थं कुत्रापि दातव्यं कुत्रा किमर्थम् इति कृत्वा आम्रवृक्षः अस्ति वृक्षस्य अधः तदेच्छन्नस्ति सः चिन्तयति आम्राश्च सिक्ताः पितरश्च तृप्ताः एका क्रिया गच्छतरी बभूव आम्राश्च सिक्ताः आम्रवृक्षाः सन्ति तेषामपि सेचनमभूत् पितरश्च तृप्ताः पितॄणामपि तृप्तिः अभूत् एका क्रिया गच्छतरी बभूव एवमेव अत्र वस्तुतः रसं निबन्धुं सः यत्नं कुर्वन् अस्ति तदा स्वयमेव अलङ्कारः आगतश्चेत् सः दोषः अमुम् अलङ्कारमेव योजयामि इति मनसि सङ्कल्पं कृत्वा तदर्थमेव प्रयत्नं करोति चेत् सः दोषः अग्रे वदति నిష్కర్తౌ ఆశ్చర్యభూతోపి యస్య అలంకారస్య రసాక్షిప్తతయైవ బంధః చక్రక్రియో భవేత్ నిష్పత్తేరనంతరం ఆశ్చర్యం భవతి అస్మాకం కోసం అయం అలంకారः అస్తి ఇది కింటు కవి తదర్థం ప్రయత్నం కృతవాన్ న భూత్ తథా భవతి చేత సహ అస్మిన్ అసంలక్ష్య క్రమభిన్నే ధనౌ అలంకారమతః సహ అలంకారः ఇది అంగీకృతः భవతి తస్యైవ రసాంగత్వం ముఖ్యం ఇత్యర్థః కథం ఇది మొదటి ప్రశ్న పృచ్చింది తదర్థం ఉదాహరణ వచ్చేది
కపోలే పత్రాణి కరతల నిరోధేన
మృదితోనిశ్వాసైతోనిశ్వాసైమృతృద్యోధరరథ నాయికా కదాచిత్ కుపితా అస్తి అతీవ కోపవతి అస్తి తాం ఉద్దేశ్య నాయకస్య కథనమేతత్ అస్తి హే నిరనురోధే అనురోధః నామ అపేక్షాయతి నిరపేక్షా మమ అపేక్షా ఏం నాస్తి ఇది చింతయంతి తాదృశి ఏ నిరపేక్షే సహ వదన్ అస్తి కపోలే పత్రాలి కరతల నిరోధేన మృదిత కపోలే విద్యమానా పత్రాలి పత్రాలి నామ హస్తేషు సర్వత్ర లిఖంది కలి చిత్రం లిఖండి మదరంగి హస్తే యథా శరీరే సర్వత్రాపి కపోలేతి లిఖ్యతే కపోలే పత్రాలి లిఖితా అస్తి పత్రాలి ఇది శబ్ద సంస్కృతే తచిత్రం లిఖ్యతే పత్రాలి కపోలే పత్రాలి లాంఛితా అస్తి సా కరతల నిరోధేన మృదితా కరతలం తత్రే భూకాలా తీవ నిన్యస్తవతి అస్తి అత కరతలస్య నిరోధేన కరతలస్య ఆదర్శనేన సా ఇదానీ మృదితా జాతా అస్తి పత్రభంగరచనం చేతమాసీ తదిదం నష్టప్రాయమస్తి కపోలే పత్రాలి కరతల నిరోధేన మృదితా అస్తి నిబీతో నిశ్వాసై అయం అమృతహృద్య అధరరస అధరే య రస అస్తి సహ రస ఇదానీ పునఃపునః నిశ్వాసకరణేన సహ పీడ అధరరస ఇదానీ శుష్క అభవత్ बहु कोपावशात् उष्णः निःश्वासः बहिरागतः इति कारणतः अधररसः सर्वोऽपि शुष्कः जातः. शुष्कः जातः इत्यस्य सः कथं वदन्नस्ति, सर्वोऽपि अधररसः निपीतः. पीतः केन निपीतः इति चेत् निःश्वासैः सः निपीतः. मुहुः कण्ठे लग्नः तरवयति वा बाष्पस्तनतटम्. कण्ठे लग्नः, कण्ठे लग्नः नाम कण्ठाधिष्ठितः. बाष्पः कण्ठे स्थितः बाष्पः अश्रुजलम् एतस्य. तत् स्तनतटं तरलयति, तत् अत्र पतति इति कारणतः कम्पते, वक्षस्थलं कम्पते. एवम् उक्त्वा सः वदन्नस्ति इत्युक्ते वस्तुतः एतानि सर्वाणि प्रियकरणेन करणीयानि कार्याणि. अस्य मृदत् किं मार्ग किं पत्राल्याः विमर्दनम् अनन्तरम् आदरसस्य इत्यादि तेन कर्तव्यानि कार्याणि आसन्. किन्तु तानि सर्वाणि कार्याणि इदानीं कोपेन कृतानि सन्ति. इत्युक्ते कोपः इत्येकः अस्ति किल, कोपस्यैव एकः पुरुषः इति कल्प्यताम्. कोपः इति कश्चन पुरुषः अस्ति, अतः सः कोपः एव तव मन्युः एव तव प्रियः जातः. मन्युः कोपः, हे प्रिये रचयिष्ये, मन्युः एव तव प्रियः जातः अस्ति, न वयं, वयं प्रियाः न जातः. आत्मनि बहुजनस्य प्रयोगः चिन्त्यते. वयं प्रियाः न जाताः, तर्हि कः प्रियः भवत्याः इति चेत् कोपः अस्ति किल, कोपः एव प्रियः जातः. प्रियः यानि यानि कार्याणि करोति तानि सर्वाणि कार्याणि अनेन कोपेन कृतानि सन्ति, अतः कोपः एव प्रियः जातः इति वर्णनं कृतवान् अस्ति. अत्र वस्तुतः शृङ्गारसस्य वर्णनमस्ति. ईर्ष्याल् प्रलम्भः इति शृङ्गारसे ईर्ष्या कोपः भवति किल, तादृशप्रसङ्गस्य वर्णनं कृतमस्ति. तत् कृतवान् अस्ति तस्मिन् समये मदपेक्षयापि कोपः एव प्रियः इति वर्णनं कृतं भवति किल. अतः अत्र विषयेकालङ्कारः विचरेको विशेषश्चेत्यागतमस्ति किल, यथा किं शैलायुगोन्नता सन्तः किन्तु प्रकृतिकोमलाः इति वर्णनं कृतं विचरेकालङ्कारः. इत्युक्ते एकत्र अधिकं वैशिष्ट्यं न्यूनं वा कुत्रचित्. अत्र किं वैशिष्ट्यमिति चेत् मदपेक्षया कोपः एव प्रियः जातः इति वर्णनं कृतम्. अतः विचरेकालङ्कारो चेत् अस्य लेखनावसरे कालिदासप्रति मन्ये न स्मरामि, सः अहं व्यतिरेकालङ्कारस्य प्रयोगं करोमि इति सङ्कल्पं कृत्वा उपविश्य कृतवान् नास्ति. तत्तु सहजतया शृङ्गारसस्य निबन्धनार्थम् उद्युक्तः. तत्र अकस्मात् इव कुलिकालङ्कारः रसाङ्गत्वे च तस्य लक्षणम् अक्षुण्णम् अपृतज्ञत्नम् निर्वर्त्यते इति. एवम् एतादृशे तादृशस्य अलङ्कारस्य निवर्तनार्थं पृथग्यत्नः करणीयः नास्ति, अपृतज्ञत्वेन तत्र निर्वर्त्यते, तादृशं भवितुमर्हति इत्यस्य एकम् उदाहरणं दर्शितम्. रसं बन्धुं मध्यवसितस्य कवेः यः अलङ्कारः तां वासनाम् अत्यूष्य यत्नान्तरमाश्रितस्य निष्पद्यते सः नसाङ्गम् इति. तदेव अस्तुपरितं वदति इत्युक्ते किमस्ति, यत्नान्तरम् आस्तिकस्य तदर्थमेव पृथक् प्रयत्नं कृत्वा यदि सम्पाद्यते निष्पाद्यते सः रसाङ्गं न भवति. इत्युक्ते बहु प्रयत्नेन स्वयमेव रसस्य अङ्गत्वेन आगत्य उपविशति, तत्र रसाङ्गम् अङ्गीक्रियते, अन्यथा नाङ्गीक्रियते. यमके च प्रबन्धेन बुद्धिपूर्वकं क्रियमाणे नियमेनैव यत्नान्तरपरिग्रह आपतति शब्दविशेषान्वेषणरूपः. यमकनिबन्धनं करणीयम् इति कविः सङ्कल्पं करोति चेत् तदर्थमेव तेन प्रयोगः अन्वेष्टव्यः भवति. इदानीम् एकस्य शब्दस्य प्रयोगं कृतवान् करः अथवा कविः इति प्रथमवाक्ये प्रयोगं कृतवान्. द्वितीयवाक्येपि पुनः कपिः इत्येव वक्तव्यं तेन, अथवा हरिः इति वक्तव्यम्. अन्यः अर्थः स्यात्, तानि शब्दस्य अन्ये के के अर्थाः सन्ति तस्य अन्वेषणं करणीयं, बहु प्रयत्नेन चयनं करणीयं भवति. तादृशं नास्ति. అలంకారాంతరే స్ఫుటి తత్తుల్యమితి చేత మైవం శక్తి ఎత్ర కుత్రాపి ఏకత్ర అలంకారస్య నివేశనం కరణీయం ఇచ్చేసి చేత కపి నా ప్రయత్నం కరణీయమేవ ఉపమాలంకార స్యాత్ వ్యతిరేక అలంకార స్యాత్ అథవా అన్య కోపి అలంకారస్య అన్యస్య కర్తి అలంకారస్య నిబంధనం కరణీయం చేత కపి నా ప్రయత్నం ప్రయత్నం కరణీయమేవ కిల అలంకారస్య లక్షణం కిం ఇత్యాది సర్వం విచిన్త్య కరణీయమేవ భవతి ఇతి చేత మయోమేవ అలంకారాంతరాణి నిరూప్యమాణ దుర్ఘటనాన్యపి రససమాహిత చేతస ప్రతిభానవత కవే అహం పూర్వికయా పరాపతంతి అన్యాని సర్వాణి అలంకారాన్ని కథం భవంతి ఇది చే రససమాహిత చేతాః కవీయః చే తస్య మనసః తాభ్యాః అలంకారః స్వయమేవ సహ విశిష్య తమ్ రసమేవ మనసీధాయ నిఖిల్ భవతి తదా స్వయమేవ తస్య ముఖాత్ ఏదాదృశాః అలంకారాః బహిః ఆగచ్చంతి స్వయమేవ ఆగచ్చంతి ప్రతిభానవతః కవేః రససమాహిత చేతసః కవేః అహం పూర్వీక తదయా అహమాగచ్చామి అహమాగచ్చామి ఇది తథా ఆగచ్చంతి ఇది లిఖంతి. ఎస్ ఎల్ భైరప్ప సద్యకాలే ఏకస్మిన్ సందర్శనే ఉక్తవాన్ అస్తి తస్య గురవః తం వదంతి స్మ. బహు సమీచీన యః కవిః అస్తి బహు ప్రయత్నం కృతవాన్ అస్తి తాదృశం ఉద్దిశ్య శబ్దాః స్వయమేవ ఆగత్య మమ ప్రయోగం కరోతు మమ ప్రయోగం కరోతు ఇది వదంతి. కింటు మమ తు తాదృశ అనుభవః కోపి నా భవతి సహ వదంతి భైరప్ప మహోదయ. ఇది అస్మాకం సిద్ధాంతస్తు సహా అస్తి శబ్దార్థ్యో అథవా అలంకారార్థ్యో స్వయమేవ బహిరాగచ్చంతి. కుత్ర కేవలం వదంతి వా ఇది చేత్ ఉదాహరణమది దర్శయ యథా కాదంబర్యాం కాదంబర్యంతే కాదంబరీ దర్శనావసరే కాదంబరీ యదా ప్రథమతయా చంద్రాబిందః పశ్యతి తదా కాదంబర్యా దర్శనావసరే యద్ వర్ణనం కృతమస్తే తత్ర అలంకారాః స్వయం అహమహమికయా ఆగతాః. యథా చ మాయా రామాది శిరో దర్శన విక్వలాయాం సీతాదేవ్యాం చేదౌ చేతుబంధః ఏకం కావ్యం ప్రవర్తేన విరచితం చేతుబంధః ఇది ప్రాకృత మహాకావ్యం ప్రాకృతవాకాయం విరచితం. తత్ర మాయా రామాది శిర ఇంద్రజిత్ మాయా శిర కర్త ఇది కదా రామస్య లక్ష్మణస్య చ తాదృశ శిరస దర్శన విక్వలాయాం సీతాదేవ్యాం ఏవం బహవః అలంకారాః. వాచ్యవిశేషైరేవ ఆక్షేతవ్యా తత్ప్రతిపాదకేశ్చ శబ్దైః తత్ప్రకాశినః వాచ్యవిశేషాః ఏవ రూపకాదయ అలంకారాః తస్మాత్ న తేషాం బహిరంగత్వం రసాభివ్యక్తౌ. కించిద స్పష్టత అస్తి అస్మిన్ వాక్ये సమస్తే జానగ్రహ్యతామి. యమక దుష్కర మార్గే తు తత్ హితమేవ ఇత్యుక్తే యమకాదికి విశేషత యమక నిబంధనం కర్తుం కచ్చన ప్రయత్నం కరోతి ఇది చేత బహు ప్రయత్నేనైవ యమకస్య నిమిత్తం ప్రయత్నం కరే యమకస్య నిబంధనం కర్తుం తేన కోశం పార్శ్వే స్థాపయిత్వా ఏ ప్రయత్నం కరణీయం అన్యేషు అలంకారేషు ప్రశ్నం కరోతి అన్యేషు అలంకారేషు తథైవ స్యాత్ ఖలు ఇది ప్రశ్న నా తథా నా యమకాదీనేవ రథాంగిత్వేన కుత్రచిత్ దృశ్యంతే యత్తో రసవంతి కాంచిత యమకాదీన్ దృశ్యంతే తత్ర వయం కిం కుర్మః ఇతి చేత రసాదీనాం అంగత యమకాదీనాం తు అంగితైవ. ఇదానీం అంగీక అంగం కిం ఇది ప్రశ్న ఆసీత్ ఖలు ఏతావత్పర్యంతం వయం కిం కుర్వంతః స్మః రథ అంగీ తత్ర యమకాదీ మన్యే కలు ఏక అలంకారాః అంగభూతాః यत्र तादृशं भवति रथवन्ति यमकादीनि भवन्ति तत्र तु यमकादीनामेव अङ्गीकारः यमकालङ्कारः एव तत्र अङ्गी रसः अङ्गीनां तु अङ्गता यमकादीनां तु अङ्गितैव रसाभासे च अङ्गत्वमपि अनुरीतम् रसाभासे कदाचित् तस्य अङ्गत्वं भवति चेत् तर्हि अङ्गिकासु लिङ्गीरसे नाङ्गत्वं पृथग्यत्निर्वर्तयित्वामकादेः यमकादीनां तु पृथगेव प्रयत्नं कृत्वा निवर्तनं करणीयं दृश्यते अतः तस्य न भवति अस्यैव अर्थस्य सङ्ग्रहश्लोकाः इदानीं निरुक्तं तमेव अर्थं सङ्गृह्यते इति श्लोकेषु रसवन्तिः वस्तूनि
रसवन्तिः वस्तूनि
तारङ्गाराणि कानिचित्
तारङ्गाराणि कानिचित्
एकेनैव प्रयत्नेन
एकेनैव प्रयत्नेन
निर्वर्त्यन्ते महाकवे
निर्वर्त्यन्ते महाकवे
कानिचित् वस्तूनि रसवन्ति नाम रससहितानि रसवन्ति वस्तूनि कविना निर्वर्त्यन्ते निर्वाहः क्रियते निर्माणं क्रियते तस्य तारङ्गाराणि कानिचित् तानि कानिचित् अलङ्कारसहितानि अपि भवितुमर्हन्ति तानि सर्वाणि एकेनैव प्रयत्नं रसनिबन्धनार्थम् एकः प्रयत्नः पुनः अलङ्कारस्य योजनार्थम् अन्यः प्रयत्नः इति न क्रियते एकेनैव प्रयत्नेन निर्गच्छन्ते तस्य महाकवे महाकवेस्य यमकादिनिबन्धे तु
यमकादियत्नोऽस्यजायते
तस्यापि रसैङ्गत्वम्
तस्मादेशाम्
न विद्यते
तस्मादेशाम् न विद्यते
यमकादीनाम् निबन्धनम् करणीयमित्यस्ति चेत् तदर्थम् पृथिवेव यत्नः आवश्यकः भवति पृथग्यत्नादेव यमकादीनाम् निबन्धनम् जायते शक्तस्यापि कश्चन महान् कविः अस्ति शक्तः तादृशस्यापि यमकनिबन्धनम् करणीयमित्यस्ति चेत् प्रयत्नः एव करणीयः भविष्यति तस्य अतः रसे अङ्गत्वं न विद्यते तथा यदि यमकस्य निबन्धनं कृतवान् भवति तस्य रसे अङ्गत्वं न विद्यते रसाभासाङ्गभावस्तु
रसाभासाङ्गभावस्तु
यमकादेर्न वार्यते ूते शृङ्गारे
पुङ्गतानोपपद्यते
रसे यमकादीनाम् अङ्गत्वं भवितुं नार्हति किन्तु रसाभासादिषु कदाचित् अङ्गीक्रियते तदेव रसाभास अङ्गभावस्तु रसाभावस्य अङ्गरूपेण तिष्ठति इत्यस्ति चेत् तद् यमकारे अङ्गभावः न वार्यते न इति न वदामः रसः रसाभासः द्वयोर्मध्ये रसः एव खलु प्रधानः रसाभासादिषु कदाचित् यमकादीनाम् अङ्गभावत्वमस्ति चेत् तद् न वार्यते न वारयामः न विरोधं न कुर्मः शृङ्गारे ध्वन्यात्मभूते शृङ्गारे तु तस्य अङ्गता इति तु न उपपद्यते न अङ्गीक्रियते अग्रे इदानीं ध्वन्यात्मभूतस्य शृङ्गारस्य व्यञ्जकः अलङ्कारवर्गः आख्यायते तदर्थमस्ति शृङ्गाररसस्य यः व्यञ्जकः अलङ्कारवर्गः केचन अलङ्काराः शृङ्गाररसं व्यञ्जयन्ति तान् कापि इति इदानीं ध्वन्यात्मभूते शृङ्गारे विनिवेशितः रूपकार्यलङ्कारवर्गः
रूपकार्यलङ्कारवर्गः
एति यथार्थताम्
यथार्थताम्
ध्वन्यात्मभूते शृङ्गारे यत्र ध्वनिरेव आत्मरूपेण तिष्ठति तादृशे शृङ्गारादौ समीक्ष्य विनिवेशनं करोति चेत् अलङ्कारादीनां निवेशनं समीक्ष्य विचिन्त्य करोति चेत् तदा सः रूपकार्य अलङ्कारवर्गः अलङ्कारत्वं प्राप्नोति अतः अस्ति एव अलङ्कारः नाम किं शरीरस्य अलङ्कारं करोति तथा काव्यशरीरस्य अलङ्कारं जनयति इति अलङ्कारत्वं तु प्राप्नोति एव अलङ्कारत्वम् अलङ्कारता यथार्थतया अङ्गीक्रियते भवितुमर्हति अलङ्कारो नाम बाह्यालङ्कारसाम्यात् अङ्गिनः कारुत्वहेतुः उच्यते वस्तुतः बाह्यशरीरस्य अलङ्कारहेतुः तथापि तत्साम्यवशात् रसस्यापि अलङ्कारं करोति इति उच्यते तावदेव. वस्तुतः अलङ्कारं तस्य शरीरस्य बाह्यालङ्कारसाम्यात् अङ्गिनः दातुत्वहेतुः इति उच्यते. वाच्यालङ्कारवर्गस्य रूपकादिः यावान् उक्तः वक्ष्यते कैश्चित् केचन रूपकादयः उक्ताः अन्ये केचन अलङ्काराः वक्ष्यन्ते कैश्चित् तैः अलङ्काराणाम् अनन्तत्वात् कति अलङ्काराः इति पृच्छति अलङ्कारालङ्काराः सर्वोऽपि यदि समीक्ष्यमीवेश्यते तदहं लक्ष्यक्रमव्यङ्ग्यस्य गुणेः अङ्गिनः सर्व एव चारत्वहेतुः निपद्यते. अतः अलङ्काराणां प्रयोग एव न करणीयः इति वयं वदामः. बहु विचिन्त्य कुत्रचित् तत्र तत्र एकैकम् अलङ्कारं प्रयुञ्जते चेत् तत्र दोषः नास्ति. यदि कविः तद्विषये यत्नवान् भवति स्वयं किमपि अलङ्कारापि आगच्छति. तेषा चास्य विनिवेशने समीक्षा विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन
प्रत्यवेक्षणम्
रूपकादेः अलङ्कारवर्गस्य अङ्गत्वं कथं सिद्ध्यति इति चेत् इत्युक्ते रूपकादे अलङ्काराः भवन्ति एकस्मिन् कार्ये ते सर्वे कथम् अङ्गत्वं प्राप्नुवन्ति इति चेत् तेषां सर्वेषामपि तत्परत्वेन विवक्षा भवेत्. तत्परत्वेन तत्पर नाम तदेव मुख्यं. किं परम् इति चेत् रसः रसपरत्वेन विवक्षा अस्ति चेत् तत्परत्वेन विवक्षा अस्ति चेत् न अङ्गित्वेन कदाचन अङ्गिरूपेण न रसपरतया भवन्ति चेत् सदा काले च ग्रहणत्यागौ कस्यचित् अलङ्कारस्य काले ग्रहणं कुत्रचित् कस्यचित् अलङ्कारस्य ग्रहणं काले त्यागः भवति. काले ग्रहणं काले त्यागः नाम कः इति चेत् उदाहरणं दर्शयते काले च ग्रहणत्यागौ नादिनिर्वहणैषिता किञ्चित् कश्चित् अलङ्कारस्य निर्वहणं करोमि इति आरब्धवान् दीर्घपर्यन्तं तदेव अलङ्कारं न नयति. अन्तपर्यन्तं निर्वहणस्य इच्छा नास्ति तादृशम् निर्मूढावति अङ्गत्वे यत्नेन प्रत्यवेक्षणम् अकस्मात् अन्तपर्यन्तं निर्वहति चेदपि तमेव अलङ्कारं नयति चेदपि यत्नतः अङ्गत्वेन प्रत्यक्षापनम् एवं सर्वं करोति चेत् रूपकादीनाम् अलङ्काराणाम् अङ्गत्वं तर्हि किम् एतत् काले ग्रहणं काले त्यागः अनन्तरं किं तत् नाति निर्वहणयुक्ता निर्मूलादिकाङ्गत्वं नाम किम् इत्यादि भवतां मनसि प्रश्नः भवति. तस्य उदाहरणानि क्रमशः दर्शयति. रसबन्धेषु आदृतमनाः कविः यमलङ्कारं तदङ्गतया विवक्षति सः इत्युक्ते कविः रसनिर्वहणे दत्तचित्तः अस्ति. अस्य कश्चित् रसस्य निर्वहणं कर्तुं सः उद्युक्तः तदा एतत् सर्वं क्रमशः कुत्रचित् करोति काले निर्वहणं काले त्यागः इत्यादि सर्वं करोति. कथम् इति चेत् यथा एकम् उदाहरणं कस्य इति चेत् एतत् इत्युक्ते काले कश्चित् अलङ्कारस्य ग्रहणं तत् उदाहरणम् अभिज्ञाचारं कर्तुं चलापाङ्गम् दृष्टिम् स्पृशति बहुशो वेपसुमती रहस्याख्यायैव स्मनति मृदुकरणान्तिकचरः करौ व्याधिं वत्या पिबतिरति सर्वस्वमधरम् तत्त्वान्येषान् मधुकरः तात्त्वम् खलु कृति पठितमेव आसीत् भवद्भिः अभिज्ञानं करे. भ्रमरः शकुन्तलायाः समीपे भ्रमन् अस्ति. तद्दृष्ट्वा दुष्यन्तस्य एतद् वचनमस्ति. सा सः भृङ्गः किं भृङ्गः किं करोति इति चेत् सः भृङ्गमुद्दिश्य वदन्नस्ति हे भृङ्ग मधुकर त्वं तस्याः दृष्टिं पृशति शकुन्तलायाः दृष्टिं नाम एते दृष्टिं पृशति कीदृशी दृष्टिः इति चेत् चलापाङ्गां दृष्टिम् अपाङ्गाः चलन्ति तादृशम् अपाङ्गा नेत्रयोः पार्श्वभागः कोणभागः यत्र चलन्ति तादृशीं चलापाङ्गां दृष्टिं पृशति पुनः कीदृशीं लेपथुमतीं कम्पमानां कम्पनसहितां चलापाङ्गां दृष्टिं बहुशः पृशति पुनः पुनः दत्वा तां पृशन् अस्ति रहस्याख्यायैव स्वनसि मृदु कर्णान्ति कटरः कर्णान्तिके कर्णयोः समीपे चरन् मृदः कर्णसमीपं गच्छन् कर्णान्तिकटरः अथवा कर्णान्तिकटरः कर्णन् रहसि आख्यायैव रहसि किमपि वदन्नस्ति इतिवत् रहसि आख्यायैव स्वनसि शब्दं करोति अनन्तरम् करव्या सुन्वत्या रति सर्वस्वम् अनरम् पिबति सा करम् इतस्ततः विक्षिपन्ति अस्ति हस्तौ तस्याः तस्याः शकुन्तलायाः रति सर्वस्वम् अनरम् त्वम् पिबति इत्युक्त्वा इदानीं दृश्यन्तः अन्तिमवाक्यं वदन्नस्ति हे मधुकरा वयम् सत्त्वान्वेषात् हताः वयं तु तत्त्वचिन्तनमेव कुर्वन्तः स्मः वयं कृतं चेत् किं भवेत् करणीयं वा न करणीयं वा इति त्वं तु एतत् सर्वं कुर्वन्नस्ति अतः त्वं खलु कृती नाम कृतार्थः अत्र विशिष्य स्वभावोक्तिः इति कश्चन अलङ्कारः स्वभावोक्तिर्नाम विशिष्य पशूनां स्थिर्यजन्तूनां प्राणिनां सर्वेषां स्वभावः यः अस्ति तस्यैव तथैव वर्णः स्वभावोक्ति वर्णः स्वभावोक्तिः इति कथ्यते अत्र कश्चन भ्रमः भ्रमरः कथं करोति आगत्य नेत्रसमीपे एवं तिष्ठति कर्णसमीपे कथं करोति अनन्तरं अकरं पिबति इत्यादि तस्य सामान्यतया भृङ्गस्य स्वभावस्य वर्णनं कृतम् अतः स्वभावोक्ति अलङ्कारः अत्र कविना निवृत्तः अत्र हि भ्रमरस्वभावोक्तिरलङ्कारः सः रसानुगुणः अस्ति शृङ्गाररसानुगुणतया अत्र स्वभावोक्तिः इत्यलङ्कारः विनिवेशितः अस्ति रसतात्पर्यत्वेन कथम् उक्तं किल विवक्षा तत्परत्वेन तत्परत्वेन विवक्षा शृङ्गाररसपरत्वेन इदानीमत्र स्वभावोक्तेः अलङ्कारस्य विनिवेशः नित्वेन इति प्राधान्येन इत्युक्ते एतदेव प्रधानम् इदानीम् अस्मिन् प्रसङ्गे भ्रमरस्य वर्णनमेव बहु प्रधानं न प्रासङ्गिकतया आगतं भ्रमरस्य वर्णनं क्रियते तावदेव तदेव प्रधानं शृङ्गारतः प्रधानः कदाचित् रसाधितात्पर्येण विवक्षितः अलङ्कारः कश्चित् अङ्गत्वेन विवक्षितो दृश्यते कुत्रचित् रसादितात्पर्येण विवक्षितो हि अलङ्कारः कश्चित् अङ्गित्वेन विवक्षितः दृश्यते कुत्रचित् अलङ्कारः एव अङ्गित्वेन पूर्वमिदानीं अलङ्कारः अङ्गत्वेन कुत्रचित् रसादितो अङ्गित्वेन रसः एव सामान्यपेक्षया अलङ्कारः एव अप्रधानतया तादृश उदाहरणानि अपि भवन्ति इति कृत्वा पर्यायोपस्य एकम् उदाहरणम् दत्तमस्ति चक्राधिघातप्रसभाज्ञयैव
चक्राधिघातप्रसभाज्ञयैव
चकारयो राहुवधूजनस्य आलिङ्गनोद्धामविलासवन्ध्यम्
आलिङ्गनोद्धामविलासवन्ध्यम्
विष्णोः वर्णनं कर्तुं प्रयुक्तः सः किन्तु सः किं वर्णयन्नस्ति इत्युक्ते तत्र राहुकेतोः कथां जानन्ति किल अमृतमथनसन्दर्भे देवान् सर्वान् अपि एकत्र उपवेश्य एषा मोहिनी मोहिनीरूपधरः विष्णुः सर्वेभ्यः एतत् समीचीनम् आसीत् तन्मध्ये एकः राक्षसः आगत्य దేవరూపం దృత్వా దేవానాం భవించినాగతి ఉపవిష్టవాన్ యదా సహ స్వీకృతవాన్ తావత్కాలి విష్ణు జరిగింది తదహ ప్రవేశాత్ పూర్వమేవ గర్వీ గృహీతవాన్ ఆసీత్ తయా దర్యా ఏవ తస్య కంఠం అచ్చిన పీతవాన్ అస్తి అత జీవతి కింద రుండముండద్వయమ పృథక్ పృథక్ తిష్టతి అత శిర అస్తి కిల తావాన్ భాగ రాహు అత విద్యమాన భాగ కేతు ఇది రాహు కేతు ఇది జ్ఞానద్వయం అభూత్ ఉక్తవంతో విష్ణు ఇది చేత సూర్య చంద్రశ్చ పార్శ్వ ఉపవిష్టవంతో ఐష రాక్షస రాక్షస ఉక్తవంతో అత తయో విషేత కోప అత ప్రతివర్షం రాహుమ విగ్రహతే చంద్రమే సూర్యమీ గ్రహతే చంద్రగ్రహణం అత రాహు నామ ఇది చేత కేవలం శిర రాహు శిర అత రాహు శిర వాక్యం ఉచ్యతే రాహుగుణం శిర రామరేణ అత కిమే నాస్తి అత విష్ణో వర్ణనం కృతమస్తి అత్ర చక్రస్ ప్రహారనిమిత్తం ఆజ్ఞాం కృతవాన్ ఆదర్శ రాహో పత్ని అస్తి కిల తుఖం నామ కింది చేత విష్ణు వదతి విష్ణవే నమా విష్ణు విషయ భక్తి ఇత్యాది చింతనాపేక్షయా అత్ర అలంకార పర్యాయోక్తారంగి చింతనం తదేవ అంగీరూపేణి పర్యాయోక్త ఇది కష్టన అలంకారా అస్తి పర్యాయోక్త నామ విశేషణానాం బహుజింజ్య ప్రయోగ ఏకైక విశేషణ సార్థక్యం ఆవశ్యకం అత్ర తాదృశ విశేషణాన్ని ప్రయుక్తాన్ని సంతి ఆలింగనం నానుల్లాతలంగ్యం రథోత్సవం సింహనమాత్రదేశం ఇత్యాది విశేషణానాం తాత్పర్యం అత పర్యాయోక్త అంగిత్యోక్త కుత్రచిత్ భవితుమర్హతి తత్ రథాది తాత్పర్యే సత్యం యద్యపి రథాది తాత్పర్యం అస్తి తథాపి అత్ర అలంకారస్యాపి అంగిత్వం భవితుమర్హతి సత్యం అంగిత్వేన అవివక్షితమపి యం అవసరే గృహ్ణాతి న అనవసరే కుత్రచిత్ అవసరే గృహ్ణాతి అంగిత్వేన అస్తి కుత్రచిత్ అవసరే గ్రహణం న అనవసరే కథం నిర్జే అవసరే గృహీతే ఉద్గామోత్కలికాం విపాండురరుచం ఉద్గామోత్కలికాం విపాండురరుచం
ఉద్గామోత్కలికాం విపాండురరుచం
ప్రారబ్ధ జుంభాంశనా
ప్రారబ్ధ జుంభాంశనా
ఆయాసం సతనోద్గమైరవిహృదైః
ఆయాసం సతనోద్గమైరవిహృదైః
ఆసన్వీమాత్మనీమాత్మన అద్యోద్యానలతాని మాం సమదనాం
అద్యోద్యానలతాని మాం సమదనాం
నివాణ్యాం ధ్రువం
నివాణ్యాం ధ్రువం
పశ్యన్ కోప విపాటలద్యుతి ముఖం
పశ్యన్ కోప విపాటలద్యుతి ముఖం
నాయికాయ మాళవికాగ్ని ఇంద్రనాటకస్య ప్రతిబింబం తదా ఏష అగ్నిమిత్రః తస్య కోపం అహం జనయామి ఇతి చిందయిత్వా వదన్నస్తి లతా దృశ్యతే తాం లతాం అహం ఇదానీ పశ్యామి కథం పశ్యామి లతా కీదృశీ అస్తి ఇది చేత యథా ఏకాం నాయికాం పశ్యామి తథా ఏకాం లతాం పశ్యామి చేత తస్యా కోపః భవతి అన్యాం నాయికాం పశ్యామి చేత కోపః భవతి అతః ఏకాం లతాం పశ్యామి ఇది సహ వదామస్తి కీదృశీ చేత ఉద్గామోత్కలికాం సత్యాం లతాయాం ఉత్కలికాః ఉద్గామోత్కలికాం అనంతరం तस्य सर्वस्य अर्थद्वयम् अस्ति लता विषये तथैव महिलायाः विषये इदानीं लता विषये प्रथमं स्वीकुर्मः उद्गाम उत्कलिकाम् अनन्तरं पिपाण्डुरक्षम् सीतवर्णम् सीतवर्णसहित पिपाण्डु सीतवर्णम् सीतवर्णसहितम् इत्यर्थे तादृशपुष्पाणि तदर्थम् प्रारब्ध जृम्भान् क्षणात् जृम्भानां विकासः इत्यर्थः तस्य विकासः इदानीं प्रारब्धः अस्ति तादृशीं लता प्रारब्ध जृम्भान् क्षणात् आयासं श्वसनोद्गमैः अविरलैः आतन्वतीमात्मनः श्वासं करोति श्वासं करोति नाम अत्र लतायाः विषये तत्पार्श्वतः वायुः एवं वान् वाति वायुः वाति कथं दृश्यते इति चेत् सा लता एव स्वकीयं किम् आयासं प्रकटयति इति भासते तादृशीं लताम् अद्य उद्यानलताम् इमामहम् समदनां नारीमिव पश्यन् एका मदनेच्छा सहितां काञ्चित् नारीं यथा पश्यामि तथा पश्यन् इति नारी चेत् कथम् इति चेत् उद्गामोत्कलिकां तत्र उत्कलिका शब्दस्य उत्कण्ठा इत्यर्थः यस्याः नायिकायाः उत्कण्ठा जाता अस्ति तादृशी उद्गामोत्कलिकां पिपाण्डुरहृदयं पाण्डुवर्णत्वं गतवती तादृशीं प्रारब्धजृम्भां जृम्भ एवं जृम्भाकरणं जृम्भां भवति प्रारब्धजृम्भाम् आयासं प्रकाशयन्ति यदा आयासः भवति तदा सद्यं श्वसनोद्गमैः पुनः पुनः स्वासं बहिः कारयन्ति अपि जृम्भां कुर्वति अस्ति तादृशीं आत्मनः आयासं प्रकाशयन्ति तादृशीं नायिकामि वा एतां लतां समदनां लतां समदनां नारीमेव एतां लतामहं पश्यन् ध्रुवं निश्चयेन देव्याः मुखं करिष्यामि मम पत्न्याः मुखम् एवं करिष्यामि कीदृशं मुखम् इति चेत् कोपविपाटलद्युति तद् कोपेन कष्टं यथा भवेत् तथा अहं करिष्यामि अन्यां कार्यं दृष्टवान् चेत् पत्न्याः कोपः भवति किल अतः तथा करिष्यामि इति कोपविपाटलद्युति एतस्याः मुखं करिष्यामि इति वदन् अत्र श्लेषालङ्कारः श्लेषालङ्कारं सः समये गृहीतवान् इत्युक्ते यत्र वर्णनं करणीयमासीत् इदानीं तस्य वर्णनं कर्तुम् उद्युक्ता तदा सः श्लेषस्य प्रयोगं कृतवान् समये नाम यत्र करणीयं तत्र योगे पाठये श्लेषालङ्कारस्य समये ग्रहणं कृतवान् अस्ति इत्यत्र श्लेषस्य अवसरे ग्रहणं समीचीनकाले यत्र प्रयोगः करणीयः तादृशकाले ग्रहणं कृतमस्ति इत्यस्य उदाहरणम् अत्र श्लेषालङ्कारः अस्ति इति ज्ञायते किल उद्दामोत्कलिकाम् इत्यादि सर्वत्रापि अर्थद्वयमस्ति गृहीतमपि च इयम् अवसरे त्यजति तद्रथानुगुणतया अलङ्कारान्तरापेक्षया कुत्रचित् गृह्णाति गृहीतमपि कुत्रचित् त्यजति आरम्भं कृतवान् गृहीतवान् गृहीतमपि मध्ये त्यजति तत् कथम् एतद् भवतां समाप्तमस्ति यथा रक्तत्वं नवपल्लवैरहमपि
रक्तत्वं नवपल्लवैरहमपि
स्वाध्यै प्रियाया गुणैः
स्वाध्यै प्रियाया गुणैः
स्वामायान्ति श्रीमुखाः
स्वामायान्ति श्रीमुखाः
ಕಾಂತಾಪಾದತಲಾಹತಿಸ್ತವಮುದೇ अशोकवृक्षं दृष्ट्वा नायकः वदति हे अशोक त्वं भवान् च समानो वदन्नस्ति रक्तत्वं नवपल्लवैः नवाः पल्लवाः तत्र आगताः सन्ति अतः नवपल्लवैः त्वं रक्तः अस्ति अहमपि रक्तः अहं रक्तः नाम रक्तवर्णः इत्यर्थः अनु अनुरक्तः कैः इति चेत् क्रियायाः श्लाघ्यैः गुणैः अहमपि अनुरक्तः अतः द्वौ अपि रक्तौ
इत्युक्ते अशोक वृक्षम् उद्दिश्य शिलीमुखाः, शिलीमुखाः नाम अर्थन्ते भ्रमराः, भ्रमराः सहजतया तानि पुष्पाणि उद्दिश्य आगच्छन्ति। स्वामायान्ति शिलीमुखाः, मामपि स्मरधनुर्मुक्ताः शिलीमुखाः आगच्छन्ति, मन्मथेन प्रयुक्ताः बाणाः, द्वितीयशिलीमुखा इत्यस्य बाणाः आगच्छन्ति, माम् उद्दिश्य मन्मथेन प्रयुक्ताः बाणाः आगच्छन्ति, शिलीमुखाः आगच्छन्ति। कान्ता पादतला हसिः तव मुदे, कान्ता यदि पादेन प्रहरति तर्हि भवतः सन्तोषः भवति। तत्र कविसमयानुसारम् अशोकवृक्षः कदा पल्लवितः भवति इति चेत् सुन्दरी नारी कदा पादप्रहारं करोति अथवा निष्ठीवनं करोति तदा किं पुष्पितः भवति कः अशोकवृक्षः इति कवितवान्। अतः कान्तायाः पादतला नदी तव सन्तोषाय भवति, तव मम अपि सन्तोषः भवति, तद्वद् मम अपि उक्त्वा आवयोः सर्वं तुल्यम् अशोक। किन्तु केवलम् अहं धात्रा, अहं शोकः कृतः, त्वम् अशोकः, भवतः शोकः नास्ति, अहं शोकसहितः कृतः, इदानीं दूरे अस्ति, अतः एतस्य शोकः, अहं सशोकः कृतः इति वदति। अत्र हि प्रबन्धप्रोक्तो विशेषः व्यतिरेकविवक्षया त्यज्यमानः, तस्य आनन्दे क्लेशम् आरब्धवान्, अनन्तरं सः त्यक्तवान् अस्ति, किन्तु अन्तपर्यन्तं क्लेशं न नीतवान् इत्युक्ते किञ्चित् त्यक्तवान् अस्ति इत्यर्थः। प्रबन्धप्रोक्तो विशेषः त्यक्तः मोचकः, व्यतिरेकविवक्षया त्यज्यमानः रसविशेषं पृष्टमस्ति, देशालङ्कारः स्वीकृतः मध्ये त्यक्तः अस्ति, तद् एवमेव अग्रे कथयति। मध्ये एतदनन्तरं कञ्चन भागं त्यजामि अग्रिमपाठात् पूर्वम्। अत्र किञ्चित् गद्यमस्ति, पुनः किञ्चित् अप्रस्तुतविचारः सर्वदा नावश्यकः, अग्रिमकक्षायां तु रसनिर्वहण एकदान हृदयो यो यमुनक नाट्यन्तं ब्रवोढमिच्छति कोपाकोमल लोलपाहुलतिका पाठेन वर्गागृहम्
सर्वे सन्तु निरामयाः, सर्वे वज्राणि पश्यन्तु मा कश्चित् दुःखभरा भवेत्। ॐ शान्ति शान्ति शान्ति।
मध्ये मित्रा श्लोकाः सन्ति, तत्र किमस्ति इत्युक्ते